श्री गणेशाय नमः। अस्य श्रीराम रक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः सीताशक्तिः श्रीमद्हनुमानकीलकम् श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः। अथ ध्यानम्। ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नं वामाकारूढसीता मुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुचटा मण्डलं रामचन्द्रम् इति ध्यानम्। चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकम् अक्षरं पुंसां महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकी लक्ष्मणोपेतं जटामुकुटमणिं रक्षां पठे प्राज्ञः पापग्नीं सर्वकामदां शिरो मे राघव पातु भालं दशरथात्मजः। कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुति जिह्वां विद्यानिधि पातु कंठं भरतवंदितः स्कंधौ दिव्यायुध पातु भुजौ भग्नेशकामुकः। करौ सीतापतिः पातु हृदयं जामदग्न्यजित् मध्यं पातु हरध्वंसी नाभिं जाम्बवदाश्रयः। सुग्रीवेशः कटे पातु सखिनी हनुमत्प्रभुः। ऊरुरघुत्तमः पातु रक्षकुलविनाशकृत् जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः। पादौ विभीषण श्रीदः पातु रामोऽखिलं वपुः। एतां राम बलोपेतां रक्षाम्य सुकृती पठे सचिरायुः सुखी पुत्री विजयी विनयी भवे। पाताल भूतल व्योम चारिणश्छद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितं राम नामभिः। वज्रपञ्जरनामेदं यो रामकवचं स्मरे अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् आदिष्टवान् यथा स्वप्ने राम रक्षामि मां हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः
पीतवाससं स्तुवन्ति ना
ते संसारिणो नरः तर्जनं सुख संपदा तर्जनं यमदूताना राम रामेति गर्जनं रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचं रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलय सदा भवतु मे भो राम मामुद्धर राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने इति श्री बुधकौशिक विरचितं श्रीराम रक्षास्तोत्रं संपूर्णं श्री सीता